इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् भारतस्य व्यापार पारगमन सन्धिभिः अनेकैः देशैः सह भारतीय यूनां कृते असंख्यावसराः उद्घाटिताः भविष्यन्ति। प्रधानमन्त्री ह्यः नवदिल्ल्याम् आभासीय तन्त्र माध्यमेन अष्टादशम् राष्ट्रिय रोजगार मेलेति वृत्तमेलकम् समबोधयत्। सः विभिन्नेषु शासकीय विभागेषु संस्थासु च नवनियुक्तेभ्यः युवभ्यः 160,000+ नियुक्तिपत्राणि वितरितवान्। एतत् मेलकम् देशे 45 स्थानेषु आयोजितम्। भारतस्य सुदृढाम् अर्थव्यवस्थाम् अभिलक्ष्य प्रधानमन्त्रिणा सबलं प्रतिपादितं यत् विश्वे एषा एव अर्थव्यवस्था या एकदशकाभ्यन्तरे स्वसकलोत्पादम् द्विगुणम् अकरोत्। सः अवदत् यत् अद्यत्वे प्रत्यक्ष वैदेशिक निवेशद्वारा भारते शताधिकाः देशाः निवेशम् कुर्वन्ति।
भारत दुनिया की एकमात्र बड़ी इकोनॉमी है जिसने एक दशक में जीडीपी को डबल किया है। आज दुनिया के 100 से अधिक देश भारत में एफडीआई के जरिए निवेश कर रहे हैं। वर्ष 2014 से पहले के 10 वर्षों की तुलना में भारत में 2.5 गुना से अधिक एफडीआई आया है और ज्यादा विदेशी निवेश का अर्थ है भारत के युवाओं के लिए रोजगार के अनगिनत अवसर।
प्रधानमंत्री नरेन्द्र मोदी अद्य प्रातः 11 आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 30+ संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयम् हि आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.com इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य अनन्तरम् आकाशवाण्या अस्य प्रसारणं क्षेत्रीयासु भाषासु अपि भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः 77वें गणतन्त्रदिवसस्य पूर्वसन्ध्यायाम् अद्य राष्ट्रं सम्बोधयिष्यति। सम्बोधनमिदम् आकाशवाणी दूरदर्शनयोः सर्वासु वाहिनीषु हिन्द्यांग्लभाषयोः सायं 7 प्रसारयिष्यते। दूरदर्शनस्य सर्वाभिः वाहिनीभिः हिन्द्यांग्लभाषयोः सम्बोधनस्य प्रसारणानन्तरम् अस्य कार्यक्रमस्य प्रसारणं भविष्यति। आकाशवाणी रात्रौ 9:30 अस्य क्षेत्रीय भाषा संस्करणस्य प्रसारणं करिष्यति। निर्वाचनायोगेन अद्य 16 राष्ट्रिय मतदातृदिवसम् आमान्यते। नवदिल्ल्याम् अत्र अनेके कार्यक्रमाः भविष्यन्ति। श्रीमती राष्ट्रपतिः द्रौपदी मुर्मुः अत्रावसरे मुख्यातिथिः भविष्यति। प्रियः श्रोतारः, संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 1:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। भारत न्यूजीलैण्डयोः मध्ये अनुवर्तमानायां 20-20 क्षेपचक्रीय क्रिकेट स्पर्धा मालिकायां गुवाहाट्याः बासपारायाम् अद्य तृतीया स्पर्धा आयोजयिष्यते। इयं स्पर्धा सायं 7 आरप्स्यते। अपरतः वुमन्स प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ डेल्ही कैपिटल्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 7 क्रीडकैः पराजितम् इति वार्ताः।